इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। झारखण्ड प्रशासनेन ह्यः रात्रौ छात्राणां विरोध प्रदर्शनस्य मध्ये अनियमितताभिः कारणैः निरस्तानां चतुश्चत्वारिंशत् नियुक्ति परीक्षाणां सूची प्रकाशिता। अष्ट अधिसूचनाः प्रकाश्य राज्य प्रशासनेन उक्तं यत् निरस्तासु परीक्षासु चतुर्दशाधिक द्विसहस्रतम वर्षात् झारखण्ड लोकसेवायोगेन तथा टीपीडीएल इति टीएसआर डेटा प्रोसेसिंग प्राइवेट लिमिटेड इत्यनया बाह्य संस्थया आयोजिताः परीक्षाः सम्मिलिताः सन्ति। निरस्तासु परीक्षासु औषध निरीक्षिकाणां सहायक प्राध्यापकानां उपसमाहर्तृणां दन्त चिकित्सकानां सहायकाभियन्तृणां व्यवहार न्यायाधीशानां अतिरिक्त लोकाभियोक्तृणाम् अथ वनक्षेत्राधिकारिणां च नियुक्त्यर्थम् आयोजिताः परीक्षाः अन्याश्च परीक्षाः सम्मिलिताः सन्ति। अन्यासु प्रमुखासु निरस्तासु परीक्षासु प्रशासकीय पॉलिटेक्निक संस्थासु व्याख्यातॄणां वरिष्ठ वैज्ञानिकाधिकारिणां सहायक वन संरक्षकाणां अथ अन्येषां प्रशासनिक प्राविधिक पदानां च नियुक्त्यर्थं परीक्षाः सम्मिलिताः सन्ति। अधिसूचनासु उक्तं यत् जेपीएससी जेएसएससी इत्येतयोः अनियमितता सम्बद्धानां प्रकरणानां शीघ्र विचारणाय उच्च न्यायालयं प्रति द्रुत न्यायालयस्य निर्माणाय अनुरोधः करिष्यते। तदतिरिक्तं जेपीएससी जेएसएससी इत्येतयोः आन्तरिक सतर्कता प्रकोष्ठस्य निर्माणमपि करिष्यते। ब्रिक्स देशैः पर्यावरण संरक्षण सतत विकासस्य क्षेत्रे सहयोगं सुदृढीकर्तुं स्वप्रतिबद्धता पुनः प्रकटिता। नवदिल्ल्यां ह्यः सम्पन्नस्य द्वादश ब्रिक्स पर्यावरण मन्त्रिणाम् उपवेशनस्य अनन्तरं संयुक्त मन्त्रिस्तरीये वक्तव्ये उक्तं यत् ब्रिक्स देशैः सतत विकासस्य त्रिंशदधिक द्विसहस्रतम वर्षस्य कार्यविधेः जलवायु परिवर्तन सम्बन्धिनः संयुक्त राष्ट्रसंघस्य रूपरेखा प्रबन्धस्य अथ पेरिस सन्धेः च पूर्ण प्रभाविरूपेण कार्यान्वयनं प्रगतिशीलं कर्तुं स्वप्रतिबद्धता पुनः दृढीकृता। देशैः बलं प्रदत्तं यत् विकसित देशेभ्यः वित्तीय सहायतायः उपलब्धतया सह अन्ताराष्ट्रिय सहयोगं सुदृढीकर्तुं विकासशील देशानां पर्यावरण सम्बद्धानां जलवायु सम्बन्धानां च आह्वानानां प्रभाविरूपेण समाधानम् आवश्यकमस्ति। भारतम् अस्मिन् वर्षे सहनशीलतायै नवोन्मेषायै सहयोगायै सतत विकासाय च निर्माणम् इति विषय वस्तुना ब्रिक्स संघस्य अध्यक्षतां करोति। ब्रिक्स देशानां मन्त्रिभिः सतत विकासस्य साधनरूपां चक्रीयार्थव्यवस्थां प्रवर्धयितुं भारतस्य नेतृत्वस्य अपि प्रशंसा कृता। केन्द्रीय गृहमन्त्री अमितशाहः अद्य सायं तमिलनाडुराज्यस्य द्विदिवसीय यात्रायै चेन्नई नगरं प्राप्स्यति। असौ श्वः चेन्नई नगरस्य समीपे कोवलम् इत्यत्र आयोज्यमाने दक्षिण भारतस्य मुख्यमन्त्रिणां सम्मेलने भागं ग्रहीष्यति। सम्मेलने तमिलनाडु केरल आन्ध्रप्रदेश तेलंगाना पुडुचेरी चेत्येतेषां प्रदेशानां मुख्यमन्त्रिणः भागं ग्रहीष्यन्ति। राष्ट्रिय परीक्षणाभिकरणेन स्वस्य परीक्षादलस्य व्यापकं पुनर्निर्माणं कृत्वा षट्शतं पुरातनान् विशेषज्ञान् निष्कास्य तेषां स्थाने नूतनाः विशारदाः संगृहीताः। शिक्षामन्त्रालयेन सामाजिकान्तर्जालीय पटले संसूचितं यत् परीक्षापत्राणां सूक्ष्म परीक्षणं सुदृढं विधातुं एनटीए संस्थया चतुःस्तरीय प्रश्नपत्र परीक्षण प्रणाली कार्यान्विता भविष्यति। वित्तमन्त्रालयेन संसूचितं यत् क्षेत्रीय ग्रामीण बैंक संघैः प्रवर्तमान वित्तवर्षस्य ऋण प्रदान क्षेत्रे तीव्रवृद्धिः अंकिता। मन्त्रालयानुसारं भारतीय रिजर्व बैंकस्य प्राथमिकता क्षेत्र ऋण प्रणाल्याः अन्तर्गतं क्षेत्रीय ग्रामीण बैंकानां प्रदर्शनम् अतीव उत्कृष्टमासीत्। भारतर्तु विज्ञान विभागेन अद्य पूर्व पश्चिमोत्तर प्रदेशेष् पूर्व मध्य प्रदेशे तथा उत्तराखण्ड राज्ये कतिपयेष् स्थानेष् अतिवृष्टेः पूर्वानुमानं प्रकटितम् इति वार्ताः।